अथवा संसार पावन कवचम ब्रह्म वैवर्त पुराणांतर्गतम शिवस्य कवचम स्तोत्रम श्रूयतामिति शौनक वसिष्ठेन च यत्तत्तम गंधर्वाय च यो मनोः ओम नमो भगवते शिवाय स्वाहेति च मनोः दत्तो वसिष्ठेन पुरा पुष्करे कृपया विभो अयम मंत्रो रावणाय प्रदत्तो ब्रह्मणा पुरा स्वयं शंभुश्च बाणाय तथा दुर्वाससे पुरा मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमं ध्यायेन्नित्यादिकं ध्यानं वेदोक्तं सर्वसम्मतम् ओम नमो महादेवाय बाण उवाच महेश्वर महाभाग कवचं यत्प्रकाशितं संसार पावनं नाम कृपया कथय प्रभो महेश्वर उवाच श्रृणु प्रवक्ष्यामि हे वत्स कवचं परमाद्भुतम् अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् पुरा दुर्वाससे दत्तं त्रैलोक्ये विजयाय च ममैवेदं च कवचं भक्त्या यो धारयेत् सुधीः जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया संसार पावनस्यासि कवचस्य प्रजापतिः ऋषिश्छन्दश्च गायत्री देवोऽहं च महेश्वराः धर्मार्थ काम मोक्षेषु विनियोगः प्रकीर्तितः पञ्चलक्ष जपेनैव सिद्धिदं कवचं भवेत् यो भवेत् सिद्ध कवचो मम तुल्यो भवेत् भुवि तेजसा सिद्धि योगेन तपसा विक्रमेण च शंभुर्मे मस्तकं पातु मुखं पातु महेश्वराः दंत पंक्ति नीलकंठोऽप्यधरोष्टं हरः स्वयं कंठं पातु चंद्रचूडः स्कंदौ वृषभवाहनाः वक्षस्थलं नीलकंठः पातु पृष्ठं दिगंबराः सर्वांगं पातु विश्वेशः सर्वदिक्षु च सर्वदा स्वप्ने जागरणे चैव स्थाणुर्मे पातु संततम् इति ते कथितं बाण कवचं परमाद्भुतं यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नताः यत्फलं सर्वतीर्थानां स्नानेन लभते नराः तत्फलं लभते नूनं कवचस्यैव धारणात् इदं कवचम् अज्ञात्वा भदेर्माव्यः सुमन्दधीः शतलक्ष प्रजप्तोऽपि न मन्त्रः सिद्धिदायकाः इति श्री ब्रह्म वैवर्ते शंकर कवचं सम्पूर्णम्।